एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधि सभया एतद् विक्रमवर्षीयं विनियोजन विधेयकं पारित कृतमस्ति। ह्य प्रतिनिधि सभायाः उपवेशे अर्थमन्त्रिणा डॉ सोनी वाग्ले विधेन एतद् विक्रमवर्षीयं विनियोजन विधेयकं पारित क्रियतामिति निगद्य प्रस्तुतः प्रस्तावः सभया बहुमतेन स्वीकृतोऽस्ति। उपवेशे विनियोजन विधेयकमाधृत्य विहिते विमर्शने पञ्चविंशत्या सांसदैः प्रस्तावितः व्यय न्यूनीकरण सम्बद्धः प्रस्तावः बहुमतेन स्वीकृतः सन्ति। सर्वकारेण गत ज्येष्ठ मासस्य पञ्चदशी दिवसे संघीय संसदः द्वयोरेव सदनयोः संयुक्तोपवेशे आगामिनः आर्थिक वर्षस्य कृते आयव्ययिकं प्रस्तुतमासीत्। तत्पूर्वम् अस्यैव आषाढमासस्य प्रथम द्वितीययोः दिवसयोः सांसदैः मन्त्रालयगत विनियोजनमाधृत्य विमर्शनं कृतमासीत्। विमर्शनस्य क्रमे उत्थापितानां प्रश्नानाम् उत्तरं सम्बद्ध मन्त्रिभिः बुधवासरे बृहस्पतिवासरे च दत्तमासीत्। ह्यस्तनोपवेशे प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयान्तर्गतं रक्षा मन्त्रालयान्तर्गतं च आयव्ययिकमाधृत्य विहिते विमर्शने उत्थापितानां प्रश्नानाम् उत्तरं प्रधानमन्त्रिणः रक्षामन्त्रिणश्च बालेन्द्र शाहविदस्य पक्षतः अर्थमन्त्रिणा डॉ सोनी वाग्लेभिधेन दत्तमासीत्। उत्तर प्रदानक्रमे अर्थमन्त्री डॉ वाग्ले राष्ट्रिय गौरवयुतः आयोजनाः निर्धारिते एव समये सम्पादयितुं सर्वकारेण उच्च प्राथमिकता प्रदत्तास्ति इति उक्तवान्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे उपराष्ट्रपतिः प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये सहसम्बद्धानि रक्षा मन्त्रालयेन राष्ट्रियोजना आयोगेन च सहसम्बद्धानि च विनियोजन विधेयकस्य शीर्षकाणि आधृत्य विहितानां प्रश्नानां प्रधानमन्त्रिणः पक्षतः उत्तरं प्रयच्छन् अर्थमन्त्री डॉ वाग्ले एवम् उक्तवान् वर्तते। तथैव ह्यस्तनोपवेशे एव शिक्षा खेलकूद मन्त्रिणा सस्मित पोखरेलेन विज्ञान प्रविधि नव प्रवर्तन मन्त्रिणा महावीर पुनेत्यनेन पूर्वाधार विकास मन्त्रिणा सुनिल लम्सालेन गृहमन्त्रिणा सुदन गुरूङ इत्यनेन ऊर्जा जलस्रोत सिंचन मन्त्रिणा विराज भक्त श्रेष्ठेन परराष्ट्र मन्त्रिणा शिशिर खनालेन अर्थमन्त्रिणा डॉ सोनी वाग्ले विधेन च उत्तरं दत्तमासीत् चेत् परह्य अन्यै अष्टभि मन्त्रिभि उत्तरं दत्तमासीत्। राष्ट्रिय स्वतन्त्र दलस्य सचिवालय उपवेशेन दलस्य विधान संशोधनं विधाय एकपञ्चाशदुत्तरैकशत संख्यायुतां केन्द्रीय समितिं संघटयितुं निर्णीतमस्ति। दलस्य सचिवालयस्य उपवेशस्य निर्णयानि सार्वजनिकुर्वाणः महामन्त्री कविन्द्र बुर्लाकोटी एकपञ्चाशदुत्तरैशत सदस्य संख्यायाः केन्द्रीय समितिः तत्र प्रदेश समितिनां सभापतिनां पदेन सदस्यतायाः निर्धारणत्वेन प्रस्तावः निर्मितोऽस्ति इति असूचयत्। सचिवालय उपवेशेन महाधिवेशनात् पूर्वम् आवश्यकतातः अधिक प्रचारः विधीयमानोऽस्ति इति उक्त्वा तत्र समयमतां धर्तुं दलस्य निर्वाचनाचार संहितां विचार्य निर्वाचनस्य गतिविधिनां सञ्चालनं कर्तुं च सदस्याः निर्दिष्टाः वर्तन्ते। उपवेशे सप्ताहनां प्रदेशानाम् अधिवेशनस्य समीक्षा च विहितास्ति इति महामन्त्री बुर्लाकोटी असूचयत्। रासोपा दलेन महाधिवेशने वैद्युत मतदान यन्त्रस्य माध्यमेन निर्वाचनं सम्पादयितुं पूर्वकार्यं विधीयमानमस्ति इति ज्ञापयन् महामन्त्री बुर्लाकोटी महाधिवेशनस्य कृते अन्यानि आवश्यक पूर्वकार्याणि जायमानानि सन्ति इति असूचयत्। अस्यैव आषाढमासस्य सप्तम दिवसात् नवमं दिवसं यावत् चितवन जनपदे आयोक्ष्यमाणे महाधिवेशने आसन्न सहस्रत्रयं प्रतिनिधयः सहभागिनो भविष्यन्ति इति रासोपादलेन ज्ञापितं वर्तते। सामाजिक सञ्जालस्य माध्यमेन प्रकाशितानां प्रसारितानां च प्रमाणाधारहीनानां विज्ञापनानाम् अपसारणाय विज्ञापन समित्या निर्दिष्टमस्ति। सामाजिक सञ्जालेषु भ्रमयुते मिथ्यापूर्णे विज्ञापने सति विज्ञापनकर्ता दण्डभाग् भविष्यति इति समित्या ज्ञापितं वर्तते। सामाजिक सञ्जालस्य माध्यमेन जायमानं भ्रमयुतं विज्ञापनमाधृत्य दण्डनस्य प्रक्रियाम् अग्रेसारयितुं सूचना संचार मन्त्रिणा डॉ विक्रम तिमिल सिन्हाभिधेन सम्बद्धः निकायः निर्दिष्टः वर्तन्ते। संचार मन्त्रालयस्य जिज्ञासायाम् अनुविज्ञापन समित्या ह्य सार्वजनिक सूचनां प्रकाश्य प्रचलित विधेय अनुसारेण निषिद्धानाम् अप्रामाणिकानाम् औषधजन्य पदार्थानां सामग्रीणां च विज्ञापनानि सामाजिक सञ्जालेषु वर्धमानानि सन्ति इति उक्त्वा तथा विधाने विज्ञापनानां प्रसारं रोद्धुं निर्दिष्टं वर्तते। वर्षायामस्य प्रारभणात् कतिचित् दिनेभ्य पूर्वत एव सर्वकारेण विपत् प्रतिकार्याय पूर्वकार्यं तीव्रगत्या विधीयमानं वर्तते। राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणे सम्भूतस्य विमर्शनस्य अनन्तरं गृहमन्त्री सुधन गुरुङ विपद समये मन्त्रिणां निरीक्षणापेक्षया नागरिकाणां सुरक्षायाम् अधिकं ध्यानं केन्द्रीकर्तव्यम् इति अगदत्। सर्वकारेण पूर्व सूचना प्रणालीम् उद्धार समूहान् सहयोग सामग्रीणां व्यवस्थापनञ्च प्राथमिकतायां संस्थाप्य कार्यं विधीयमानमस्ति इति ज्ञापितं वर्तते। वर्षाजन्यासु विपत्सु आसन्नासु पूर्वकार्यं प्रभावपूर्णं विधातुं सर्वे निकायाः सक्रियाः वर्तन्ते। प्रधानमन्त्रिणः बालेन्द्र शाहस्य राजनीतिक परामर्शदातुः असीम शाहस्य संयोजकत्वे संविधान संशोधन विमर्शन पत्र निर्मातुं संघटितेन कार्यदलेन ह्य पूर्व प्रधानमन्त्रिणा डॉ बाबुराम भट्टराय इत्यनेन सह विमृष्टमस्ति। कार्यदलेन संविधान संशोधनाय सम्भावितानां विषयाणां राजनीतिक सहमतेः सुधारस्य आवश्यक क्षेत्राणां च विषयेष् पूर्व प्रधानमन्त्रिणा सह परामर्श संकलितोऽस्ति। विमर्शनाय संयोजक शाहेन सहित समूह भट्टरा इत्यस्य निवासं प्राप्त आसीत्। चीन देशस्य हुआवे इत्याख्यायाः संस्थायाः एशिया प्रशान्त क्षेत्रस्य अध्यक्षस्य टे हेरी इत्यस्य नेतृत्वस्य प्रतिनिधिमण्डलेन ह्य सूचना संचार मन्त्रिणा डॉ विक्रम तिमिलसिन्हाभिदेन सह शिष्टाचार मेलवार्ता विहिता अस्ति। मन्त्रालये सम्भूते मेलने अध्यक्ष टे हेरी नेपालः प्रविधि रूपान्तरणस्य महत्वपूर्णे चरणे स्थिति चर्चयन् अस्य कृते हुआवे इति संस्थया सह आवश्यक प्रविधि अनुभवस्य स्रोतसां च पर्याप्तता अस्तीत्यतः सहकार्यं कर्तुं शक्यते इति अगदत्। तदवसरे संचार मन्त्री डॉ तिमिलसिन्हा नेपाल संचालितैर्गतिविधिभि स्वच्छै पारदर्शिभि उत्तरदायिभिश्च भाव्यम् इत्यत्र बलं प्रदाय मध्यस्थानुचित लाभग्राहिभिर्विना नागरिकाणाम् आकांक्षां केन्द्रे संस्थाप्य कार्यं कर्तुम् अनुरुणत् इति समाचारः।